एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण सांविधानिक परिषद सम्बद्धः प्रथम संशोधनाध्यादेशः राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् पुनः प्रेषितो वर्तते। एतत्पूर्वम् सर्वकारेण अध्यादेशममम् क्रियान्वेतुम् राष्ट्रपतेः समक्षम् प्रेषिता आसीत्। राष्ट्रपतिना च परह्यः रविवासरे पुनर्विचाराय अध्यादेशोऽयम् सर्वकाराय प्रत्यावर्तितः आसीत्। परम् ह्यस्तनेन मन्त्रिपरिषदा उपवेशेन अध्यादेशममम् आधृत्य पुनर्विचारेण विनैव पूर्ववत् पुनः राष्ट्रपतेः समक्षम् प्रेषितोऽस्तीति सर्वकारस्य प्रवक्ता शिक्षामन्त्री च सस्मित पोखरेलः असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन परस्परं सहकार्येण लिपुलेख लिम्पियाधुरा सीमविवादस्य समाधानमन्वेष्टुम् नेपाल भारत सर्वकारयोर्मध्ये समन्वयः अग्रे वर्धितोऽस्तीति च सर्वकारस्य प्रवक्ता पोखरेल असूचयत्। एवमेव उपवेशेन भारतदेशात् साक्षात् G2G माध्यमेन 60,000 मेट्रिक टन परिमितस्य यूरिया रासायनिक मलस्य अथ च 20,000 मेट्रिक टन परिमितस्य DAP नामाख्यस्य मलस्य च क्रयणाय कृषि सामग्री कम्पनी लिमिटेड संस्थानाय सैद्धान्तिकीं स्वीकृतिम् प्रदातुम् च निर्णीतम् वर्तते। उपवेशेन संसद भवन परिसरे प्रवेश व्यवस्था प्रवृत्तिन् विषयान् समाविश्य निर्मिताम् सिंहप्रासाद परिसरस्य परिमार्जित गुरू योजनाम् स्वीकर्तुम् च निर्णीतम् अस्ति। उपवेशेन परम्परागत कुक्कुट व्यवसायस्य वैद्युत कुक्कुट व्यवसायस्य रूपेण प्रतिस्थापनस्य कृते उद्योगेभ्य ऋण सहयोगम् प्रदातुम् अथ च वायुगुणस्तर मापन सामर्थ्यस्य अभिवृद्धेः उद्देश्येन विश्वकोषागारात् प्राप्यमाणम् 250 मिलियन अमेरिका देशीय डलर मुद्राणाम् सौविध्यपूर्णम् ऋण सहयोगम् 5 मिलियन परिमितम् अनुदान सहयोगम् च स्वीकर्तुम् निर्णीतम् अस्तीति मन्त्री पोखरेलः असूचयत्। प्रधानमन्त्रिणा बालेन्द्र सायेन काष्ठमण्डपोपत्यकायाः नदीनाम् तटीयक्षेत्रेषु सर्वकारीय स्वामित्वस्य भूमिसूच विहितस्य अतिक्रमणस्य व्यवस्थापनम् विधाय भूम्यावासहीनानाम् अव्यवस्थितावासानाम् च नागरिकाणाम् कृते दीर्घकालिक समाधानस्य प्रक्रिया अग्रे वर्धितास्तीति प्रोक्तम् वर्तते। फेसबुक सामाजिक सञ्जालस्य माध्यमेन पूर्वेद्यो प्रधानमन्त्री शाह सर्वकारस्य सर्वेऽपि प्रयासाः नागरिकाणाम् विस्थापनस्य अपेक्षयापि आवासस्य अधिकारस्य दीर्घकालिक समाधानम् अन्वेष्टुम् केन्द्रिताः सन्तीति समस्पष्टयत्। सर्वकारीय भूमिषु अतिक्रमणम् कृत्वा निर्मितासु संरचनासु सर्वकारेण विधेरनुसारेण व्यवस्थापनस्य प्रक्रियायाः अग्रेवर्धनस्य विषयमादाय नागरिकेषु नियोजितरूपेण त्रासस्य प्रसारणस्य कार्यम् विहितम् अस्ति। चर्चयन् तथा विधानाम् सूचनानाम् भ्रमस्य च अनुसरणम् न कर्तुम् प्रधानमन्त्रिणा सर्वे नागरिकाः अनुरुद्धाः वर्तन्ते। प्रधानमन्त्रिणः अनुसारेण 21,000 विक्रमवर्षीय भूमि सम्बद्धाधिनियमस्य कतिपय प्रकरणानि वर्तमान परिस्थितेरनुसारेण अध्यादेशस्य माध्यमेन निरस्तीकृतानि वर्तन्ते। बागमती प्रदेशस्य मुख्यमन्त्रिणा स्वस्य निवासे सम्बद्ध कार्यालये च विहितम् अनुगमनम् प्रति गभीरम् ध्यानाकर्षणम् सम्भूतम् अस्तीति ज्ञापयन् विधिगतानुसन्धानाय पूर्णतः सहयोगः करिष्यते इति प्रतिबद्धता व्यक्तास्ति। पत्ति शुद्धिकरणानुसन्धान विभागेन हेटौडावर्तिनी अथ च काष्ठमण्डपवर्तिनी गृहेषु बानिया निर्माण सेवाया कार्यालये च अनुगमनम् कृत्वा तत्र विद्यमानानि प्रपत्राणि अधिगृहीतानि सन्ति। अस्याः घटनाया पश्चात् प्रकाशितायाम् विज्ञप्तौ मुख्यमन्त्रिणा सुशासनम् पारदर्शिताम् भ्रष्टाचारमुक्त समाजस्य निर्माणम् च प्रति आत्मनः पूर्णतः प्रतिबद्धतास्तीति उक्तम् वर्तते। विज्ञप्तौ मुख्यमन्त्रिणा बानिया विदेन सर्वकारस्य सञ्चालने मितव्ययिताम् पारदर्शिताम् च प्राथमिकतायाम् संस्थाप्य कार्यम् विध्यमानम् अस्तीति च उक्तम् वर्तते। सर्वकारेण वर्तमान सर्वकार संचार स्वतन्त्रताया नागरिकाणाम् सूचनाया अधिकारम् सार्वजनिक सांविधानिक मर्यादाम् च प्रति पूर्ण प्रतिबद्धोऽस्तीति स्पष्टीकृतम् वर्तते। प्रधानमन्त्रिणः बालेन्द्र शाहस्य सचिवालयेन पूर्वेद्यो विज्ञप्तिम् प्रकाश्य प्रधानमन्त्री मन्त्रिपरिषद कार्यालयस्य परिसरस्य अभ्यन्तरे ह्य संचारकर्मिणः श्रव्यदृश्य सामग्री ग्रहणात् निषिद्धा सन्तीति समाचारम् प्रति गभीरम् ध्यानाकर्षणम् सम्भूतम् वर्तते इति ज्ञापयता कथम् विदोऽपि अवरोधः विहितो नास्तीति स्पष्टीकृतम् वर्तते। संविधान संशोधनाय विमर्शन पत्रस्य निर्माणाय संघटितेन कार्यदलेन अद्य सांविधानिक निकायानां पूर्व प्रमुखैः पूर्व मुख्य सचिवैः परराष्ट्रविद्भिः पूर्व प्रशासकैश्च सह विमर्शनं विधीयते। प्रधानमन्त्रिणः शाहस्य राजनीतिक परामर्शदातुः असीम शाहस्य संयोजकत्वे संघटितेन कार्यदलेन प्रधानमन्त्री मन्त्रिपरिषद कार्यालये अद्य दिवात्रिवादनात् पञ्चवादनं यावत् एवं परामर्शनं कर्तुं निर्णीतम् अस्ति। शिक्षा विज्ञान प्रविधि मन्त्री सस्मित पोखरेला शिक्षा क्षेत्रस्य समग्र सुधाराय स्तरत्रयस्य सर्वकार्येषु सहकार्यस्य आवश्यकता स्थिति प्रतिपादयति। शुल्क निर्धारणस्य सन्दर्भे पूर्वे द्युः मन्त्रालये आयोजिते विमर्शन कार्यक्रमे मन्त्री पोखरेलः शिक्षायां सुधारस्य कृते स्तरत्रयस्य सर्वकार्येषु सुदृढ समन्वयस्य सहकार्यस्य च आवश्यकता स्थिति प्रोक्तवान् अस्ति। सर्वकारस्य प्रवक्ता च शिक्षामन्त्री पोखरेला शुल्क निर्धारणस्य छात्रवृत्तेः प्रदानस्य च विषयेषु मन्त्रालये जनानां वेदना प्राप्ता स्थिति उक्त्वा छात्रवृत्तेः वितरणं पारदर्शी विधातुम् अन्वरुणात्। सभामुखेन डोलप्रसाद अरियालेन प्रतिनिधिसभायाः राष्ट्रियसभायाश्च संयुक्त समितिनां सभापतिभिः विमर्शनं विहितं वर्तते। ह्यो विहितं विमर्शनं सदनस्य कार्याणि प्रभावकारिणी विधातुं केन्द्रितम् आसीदिति सभामुखस्य अरियालस्य सचिवालयेन ज्ञापितं वर्तते।